गरुडकवचम् अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद ऋषिः वैनतेयो देवता अनुष्टप्छन्दः मम गरुडप्रसादसिद्ध्यर्थे जपे विनियोगः शिरो मे गरुडः पातु ललाटं विनतासुतः नेत्रे तु सर्पः पातु कर्णौ पातु सुरार्चितः नासिकां पातु सर्पारिः वदनं विष्णुवाहनः सूर्यसुधानुजः कण्ठं भुजौ पातु महाबलः हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः नखानकायुधः पातु कक्षौ मुक्तिफलप्रदः तनौ मे विगहः पातु हृदयं पातु सर्वदा नाभिं पातु महातेजाः कटिं पातु सुदाहरः ऊरु पातु महावीरः जानोनि चण्डविक्रमः जङ्गे दण्डायुधः पातु गुल्फौ विष्णुरतः सदा सुपर्णः पातु मे पादौ साक्षः पादाङ्गुली तथा रोमकूपानि मे वीरः त्वचं पातु भयापः इत्येवं दिव्यकवचं पापघ्नं सर्वकामदम् यः पठेत् पातरुत्थाय विषदोषं प्रणश्यति त्रिसन्ध्यं यः पठे नित्यं बन्धनात्मुच्यते नरः द्वादशाहं पठेद्यस्तो मुच्यते शत्रुबन्धनात् एकवारं पठेत्यस्तो मुच्यते सर्वकिल्बिषैः वज्रपञ्जरनामेदं कवचं बन्धमोचनम् इति श्रीनारदगरुडसंवादे श्रीगरुडकवचं सम्पूर्णम् ॐ श्रीगरुडाय नमः ॐ श्रीगरुडाय नमः ॐ शान्ति शान्ति शान्तिः।